ओम नारायण परब्रह्म सर्वकारण कारणम् प्रपज्ये वेंकटेशाख्यम् तदेव कवचम् मम सहस्रशीर्षाः पुरुषो वेंकटेशशिरोवधो प्राणेशः प्राणनिलयः प्राणं रक्षतु मे हरिः आकाशराक्षितानाथ आत्मानं मे सदावधो देवदेवोत्तमः पायद्देहं मे वेंकटेश्वर सर्वत्र सर्वकालेषु मङ्गलं वाजानिरीश्वरः पालयेन्मामकं कर्म साफल्यं न प्रयच्छतु येतत् वज्रकवचम् अवेज्यं वेङ्कटेशितु सायः प्रातः पठेत् नित्यं मृत्युं तरति निर्भयः
ओम नमो वेंकटेशाय नमः।